व्यथित सिंधु मनीरशनैश्शनैः अमरलोकवधू जघनैर्घनैः फणभृतामभितो विततं ततं दयितरम्यलतावकुलैः कुलैः व्यथितेति पुनश्च अनीरशनैः अनिर्मेखलैः सरशनैरित्यर्थः घनैः निबिडैः अमरलोकवधूजघनैः शनैः मन्दं व्यथितसिन्धुं शोभितनदीकम् अयम् अपरः स्वर्गः इति भावः ये रम्याः लताश्च वकुलाः केसराश्च ते दयिताः प्रियाः येषां तैः तथोक्तैः विशारदो मद्यगन्धो वकुलः स च केसरः इति वैद्यके फणभृतां सर्पाणां कुलैः अभितः ततं व्याप्तं तथा विततं विस्तृतम् ससुरचापमनेकमणिप्रभैः अपपयो विशदं हिमपाण्डुभिः अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ससुरेति अनेकाः विचित्राः मणिप्रभाः येषां तैः तथोक्तैः हिमेन पाण्डुभिः शिखरैः कृत्वा ससुरचापं सेन्द्रचापम् अपपयाः निर्जलः अत एव विशदश्च तम् अपपयो विशदम् अविचलं दैवान्निश्चलम् अतः शिखरशङ्का अस्य अभूदित्यर्थः किन्तु ध्वनितेन गर्जितेन सूचितं ज्ञापितम् अम्बुमुचां चयम् अविरतम् उपबिभ्रतम् अत्र किल कल्पितसादृश्यात् शिखरमेघसन्देहः मेघनिश्चयान्तः सन्देहालङ्कारः विकचवारिरुहं ददतं सरः सकलहं सगणं शुचिमानसं शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् विकचेति पुनश्च विकचवारिरुहं नित्यविकसितारविन्दमित्यर्थः वृत्तिसामर्थ्यात् कलहंसगणैः सह वर्तत इति सकलहंसगणम् कादम्बः कलहंसः स्यात् इत्यमरः यद्वा सकलाः सर्वे हंसगणाः यस्मिन् तत् तथोक्तम् शुचि नित्यनिर्मलं मानसं मानसाख्यं सरः दधतं किञ्च कृतेर्ष्यया कुतश्चित् निमित्तात् कुपितया इत्यर्थः अगात्मजया पार्वत्या सकलहं सविवादं सगणं सप्रमथं गणाः प्रमथसङ्ख्यौघाः इति वैजयन्ति शुचिमानसं अविद्यामिर्मुक्तचित्तं शिवं च दधतम् एतेन सकलशैलवैलक्षण्यम् अस्य उक्तम् ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना मुहुरनुस्मरयन्तमनुक्षपम् त्रिपुरदाहमुमापतिसेविनः ग्रहेति दिवम् अभितः दिवः अभिमुखम् अभितः परितः इत्यादिना द्वितीया ग्रहाः चन्द्रादयः विमानानि देवयानानि च व्योमयानं विमानोऽस्त्री इत्यमरः तेषां गणान् ज्वलयता प्रदीपयता मितां ह्रस्वः इति ह्रस्वः ओषधिजेन तृणविशेषजन्येन कृशानुना वन्हिना कृत्वा अनुक्षपं प्रतिक्षपं वीप्सायां अव्ययीभावः उमापतिसेविनः प्रमथादीन् गतिबुद्धि इत्यादिना द्विकर्मकत्वं त्रयाणां पुराणां समाहारः त्रिपुरं तद्धितार्थ इत्यादिना समासः पात्रादिभ्यः प्रतिषेधो वक्तव्यः इति स्त्रीलिङ्गप्रतिषेधः तस्य दाहं त्रिपुरदाहं मुहुः अनुस्मरयन्तं ननु अधीगर्थ इत्यादिना दाहमित्यत्र षष्ठी किन्न स्यात् तस्याः शेषार्थे विधानात् शेषत्वस्य अविवक्षितत्वात् अत्र कविसम्मतसादृश्यात् स्मृतिः इति स्मरणालङ्कारः विततशीकरराशिभिरुच्छ्रितैः उपलरोधविवर्तिभिरम्बुभिः दधतमुन्नतसानुसबुद्धताम् धृतसितव्यजनामिव जाह्नवीम् विततेति विततशीकरराशिभिः विस्तृतशीकरपुञ्जैः उच्छ्रितैः उत्पतितैः कुतः उपलरोधेन विवर्तिभिः अम्बुभिः हेतुभिः धृतसितव्यजनामिव गृहीतामलचामरामिव स्थितामिति उत्प्रेक्षा उन्नतसानुषु समुद्धतां वहन्तीं जाह्नवीं गङ्गां दधतम् अनुचरेण धनाधिपते रथो नगविलोकन विस्मितमानसः स जगदेवचनं प्रियमादरात् मुखरतावसरे हि विराजते अनुचरेणेति अथो अनन्तरम् मङ्गलानन्तरारम्भ प्रश्नकार्ष्येष्वथो अथ इत्यमरः धनाधिपतेः अनुचरेण यक्षेण नगविलोकनेन विस्मितमानसः सः अर्जुनः आदरात् प्रियं वचनं जगदे गदितः गदतेः गत्यर्थस्य दुहादित्वात् प्रधाने कर्मणि लिट् अपृष्टपरिभाषणदोषं परिहरति मुखरतेति मुखरता वाचालत्वम् अपृष्टपरिभाषित्वमिति यावत् अवसरे श्रोतुः आकाङ्क्षासमये विराजते हि आकाङ्क्षितम् अपृष्टोऽपि ब्रूयादिति भावः अलमेष विलोकितः प्रजानाम् सहसा संहतिमंहसां विहन्तुम् घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैः अचलाधिपः शिरोभिः अलमिति हिमेन गौरैः शुभ्रैः शिरोभिः शिखरैः घनवर्त्म खम् सहस्रधा कुर्वन् विपाटयन्निव इति उत्प्रेक्षा एषः अचलाधिपः हिमवान् विलोकितः दृष्टमात्र एव प्रजानाम् अंहसां संहतिं पापसङ्घातं सहसा विहन्तुम् अलं समर्थः पर्याप्तिवचने स्वलमर्थेषु इति तुमुन् औपच्छन्दसिकं वृत्तं पर्यन्तेर्यौ तथैव शेषं चौपच्छन्दसिकं सुधीभिरुक्तम् इति स्मरणात् इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् इहेति इह अस्मिन् पर्वते सुतरं न भवतीत्यसुतरं दुस्तरमित्यर्थः तरतेः खल्प्रत्ययः అంతరం మధ్యభాగం పురుషేతు అంతరం తత్వం దురధిగమై దురారోహై అన్యత్ర దుర్గ్రహై ఆగమై వృక్షై అన్యత్ర పురాణాదిభిః పురాణేప్యాగమో వృక్షే ఇతి రుద్రటః కించిదేవ సతతం వర్ణయంతి నతు కదాచిత్ ప్రత్యక్షేణాపి నిశేషం జ్ఞాతుమశక్యత్వాత్ ఇతి భావః కింతు అతివిపినం అతిగహనం దిగ్వ్యాపినం ఉభయత్రాపి సమం అముం గిరిం పరం పురుషం పరమాత్మానమివ పరం కేవలం పరమవ్యయమిచ్ఛంతి కేవలే ఇతి విశ్వః పద్మయోనిః బ్రహ్మైవ వేద నాన్యః ఇత్యర్థః విదో లటో వా ఇతి నలాదేశః అత్ర ఉపమాయమకయోః సంసృష్టిః క్షమావృత్తం తురగరసయతిర్నౌ భరౌ గహ క్షమా ఇతి లక్షణాత్ రుచిర పల్లవ పుష్పలతాగృహైః ఉపలసజ్జలజైః జలరాశిభిః నయతి సంతతముత్సుకతామయం ధృతిమతీః ఉపకాంతమపి స్త్రియః రుచిరపల్లవేతి అయం గిరిః రుచిరాణి పల్లవాని పుష్పాణి చ ఏషాంతే తథా భూతాః లతాగృహాః యేషు తైః తథోక్తైః ఉపలసజ్జలజైః శోభితకమలైః జలరాశిభిః సరోభిః కరణైః ఉపకాంతం కాంతసమీపే ధృతిమతీః ధైర్యవతీః అపి సమీపస్థానపి ప్రియాన్ న గణయంతీః మానినీః ఇత్యర్థః స్త్రియః సంతతం ఉత్సుకతాం నయతి తాసాం మానగ్రంథిం శిథిలయతీత్యర్థః అథవా ఉపకాంతం ధృతిమతీః తుష్టిమతీరపి సురతతృప్తాః అపి పునరపి ఉత్సుకతాం నయతీత్యర్థః ఉభయత్రాపి ఉద్దీపకత్వాత్ అతిశయోక్తిః వృత్తముక్తం సులభైః సదా నయవతాయవతా నిధిగుహ్యకాధిపరమైః పరమైః అమునా ధనైః క్షితిభూతాతిభూతా సమతీత్య భాతి జగతీ జగతీ సులభైరితి నయవత నీతిమత అయవత భాగ్యవత చ సదా సులభైః నాన్యైరిత్యర్థః అయః శుభావహో విధిః ఇత్యమరః నిధీనాం మహాపద్మాదీనాం అస్త్రీ పద్మో మహాపద్మశంఖో మకరకచ్ఛపౌ ముకుందకుందనీలాశ్చ ఖర్వశ్చ నిధయో నవ ఇత్యమరః గుహ్యకానాం చ అధిపం కుబేరం రమయంతీతి తథోక్తైః కర్మణ్యణ్ పరమైః ఉత్కృష్టైః ధనైః కరణైః అమునా క్షితిభృతా హిమాద్రిణా అతిభృతా పూర్ణా సతీ జగతీ మహీ జగతీ స్వర్గపాతాలలోకౌ సమతీత్య అతిక్రమ్య భాతి అమానుషైరపి దుర్లభాః సంపదః అత్ర సంభవంతీతి భావః ధనాతిభృతేతి పదార్థస్య విశేషణగత్యా జగదతిక్రమణహేతుత్వోక్త్యా కావ్యలింగం తస్య యమకేన సంసృష్టిః ప్రమితాక్షరా వృత్తం ప్రమితాక్షరా సజససైరుదితా ఇతి లక్షణాత్.